अथ षष्ठः स्कन्धः
अथाष्टमोऽध्यायः राजोवाच जया गुप्तः सहस्राक्ष सवाहन रिपुसैनिकान् क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् भगवंस्तन्ममाख्या हि वर्म नारायणात्मकम् यथादतायिनः शत्रून् जेन गुप्तो जेन मृधे श्रीशुक उवाच वृत्तः पुरोहितस्त्वष्टो महेन्द्रा न पृच्छते नारायणाख्यम् वर्माः तदिहैग्मनः शृणु विश्वरूपवाच धौताङ्ग्रिपाणिराचम्य स पवित्र उदन्मुख कृतस्वाङ्करन्यासो मन्त्रव्यम् वाग्यतः शुचिः नारायणमयम् वर्म सन्नह्यद्वयागते पादयोर्जाननोरुर्वरुदरे हृद्यथोरसि मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्निषेत् ॐ नमो नारायणायेति विपर्ययमथापि वा करन्यासम् ततः कुर्या द्वादशाक्षरविद्यया प्रणवादीयकारान्तमङ्गुल्यङ्गुष्ठपर्वसु न्यषेद्हृदय ओङ्कारम् विकारमनुवर्धनि सकारम् तु भूगर्मध्ये णकारम् शिखया दृश्येत् विकारम् नेत्रे अर्जुनजान्नकारम् सर्वसन्धिषु मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुध स्वविसर्गम् फडन्तम् तत् सर्वदिक्षु विनिर्दिश्येत् ॐ विष्णवे नम इति आत्मानम् परमम् ध्याय ध्येयम् षट्शक्तिभिर्युतम् विद्या तेजस्तपो मूर्तिमिमम् मन्त्रमुदाहरे ॐ हरिर्विदध्यान् मम सर्वरक्षाम् न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे दरारि चर्मासि गदेषु चाप पाशान् दधानष्ट गुणोष्ट बाहुः जलेषु माम् रक्षतु मत्स्यमूर्तिर्जादो गणेभ्यो वर्णस्य पाशात् स्थलेषु मायावटुवामनोऽव्या त्रिविक्रमः केवतु विश्वरूपः दुर्गेषु टव्याजिमुखादिषु प्रभु पायान्नृसिंहो सुरयुद्धपारिः विमुञ्चतो यस्य महाट्टहासम् दिशो विनेदुर्न्यपतंस्य गर्भः रक्षतसो माध्वनिजज्ञकल्पः स्वद्रंस्तयो नितधरो वराहः रामो त्रिकूटे सुत विप्रवासे स लक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् मामुग्रधर्मादखिलात्प्रमादात् नारायणः पातु नरश्च हासात् दत्तस्तयोगादथ योगनाथ पायाद् गुणेशः कपिलः कर्मबन्धात् सनत्कुमारो वतु कामदेवाद्हय शिरसा माम् पथि देवहेलनात् देवर्षिवर्जः पुरुषार्चनान्तरात् कुर्मो हरिर्माम् निरयादशेषात् धन्वन्तरीर्भगवान् पाप्पथ्यात् द्वन्द्वाद्भयादृशभो निर्जितात्मा यज्ञश्च लोकादवताञ्जनान्तात् बलो गणात् क्रोधवशादहीन्द्रः द्वैपायनो भगवान् अप्रबोधात् बुद्धस्तु पाखण्ड गणात् प्रमादात् कल्की कलह कालमलात् प्रपातु धर्मावनायुर्कृतावतारः माम् केशवो गदया प्रातरव्यात् गोविन्दया सङ्गौ मातवेणुः नारायणः प्राणवातशक्तिर्मध्यम् दिने विष्णुररीन्द्रपाणिः देवो पराने मधुग्र धन्वा सायम् त्रिधामावतु माधवो माम् दोषे हृषीकेश उतार्धरात्रे निःशीतयेकोवतु पद्मनाभः श्रीवत्सधामा पररात्रैष प्रत्युषैषोषिधरो जनार्दनः दामोदरव्यादनुसन्ध्यम् प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः चक्रम् जुगान्तानलतिग्मनेमि भ्रमत्समन्ताद् भगवत् प्रयुक्तम् दन्दग्धिदन्दग्धर्शैन्यमाशु कक्षम् यथावात् सखोहुताशः गदेश निःस्पर्शन् विस्फुलिङ्गे निष्पिण्ड निष्पिण्डजित प्रियासि कुष्माण्ड वैनायक जक्षरक्षो भूतग्रहंश्चूर्णय चूर्णयारिम् त्वम् जातु धाम प्रमथ प्रेतमात्रि पिशाच विप्रग्रहघोरदृष्टिम् दरेन्द्र विद्रावय कृष्णपूरितो भीम स्वनोरेर्हृदयानि कम्पयन् त्वम् तिग्मधारा शिवरारि सैन्यमीश प्रयुक्तो मम छिन्धि छिन्धि चक्षुंसि चर्मच्छत चन्द्रच्छादय द्विषामघोनाम् हरपाप चक्षुषान् जन्मभयम् ग्रहेभ्यो भूत्कीर्तिभ्यो निर्भयेवश्च सरीसृपेभ्यो दृष्टिभ्यो भूतेभ्यो अहुभयो वा सर्वाणि एतानि भगवन्नामरूपास्तु कीर्तनात् प्रयान्तु संक्षयम् सद्यो येन श्रेयः प्रतीपका गरुणो भगवान् स्तोत्र स्तो भय छंदोमय प्रभु रक्षत शेष कृष्णभ्यो विश्वक्सेन स्वनाम भीम सर्वापद्यो हरिनाम रूपयान इधानीन बुधिन्द्रिय मन प्राणन पांतु पार्षद भूषण यथा ही भगवान वस्तुतः सद सत्यज सत्यनाने न सर्वे जानतु न समुपद्रवः यथकात्म्यानुभावानां विकल्परहितः स्वयं भूषणाय दृढिंगाख्य धत्ते शक्ति सोमाया तेनैव सत्यमानेन सर्वज्ञो भगवान हरिः पातु सर्वैः स्वरूपेण सदा सर्वत्र सर्वगः विदिक्षु दिक्षुर्ध्वमधः समन्तादन्तर्बहिः भगवान नारसिंहः प्रहापयं लोकभयं स्वनेन स्वतेजसा ग्रस्त समस्त तेजः मघुमनिदमाख्यातम् वर्मनारायणात्मकम् विजय संजसा अजेन दंशितो सुरजूतपान एतद्धारयमाणस्तु यम यम पश्यति चक्षुषा त्वदा वा संस्पृशेत् सद्यः साधु सात्स विमुच्यते न कुतश्चित् भयं तस्य विद्यां धारयतु भवेत् राजदस्यु ग्रहादिभ्य व्याघ्रादिभ्यश्च कदाचित् इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः योग धारणया स्वांगम जहो समर्धनवनी तस्य परिविमानेन गंधर्वपतिरेकदा यजचित तथा स्त्रीभिर्वृतो यत्रुद्विजक्षय गगनान्यपतत् सद्य स्वविमानो हिवाक्षिरः सबालखिल्य वचनादस्थिन्यादाय विस्मित प्राशि प्राची सरस्वत्यं स्नात्वा धाम सुमन्नोगात् श्रीशुक उवाच य इदं शृणुयात् काले यो धारयति चादित तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् एतां विद्यामधिगतो विश्वरूप शतकृतो त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधे सुरान् इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः।